गणानां त्वा गणपतिगं हवामहे कविं कवीरामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणा ब्रह्मणस्पत आनशृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामवित्र्यवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिजागृषीः यामिषम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वविज्जगत यक्ष्मगुम् सुमना असत् अध्यवोषजति भक्ता प्रथमो दैव्योऽभिषक् अहीगुश्च सर्वाञ्जम् भयम् सर्वाश्च यातु धान्यः असौयस्ताम्रो अरुण उत बभ्रुत्सु मङ्गलः ये चेमागुम् रुद्रा अविदो दिक्षुश्रितात् सहस्रशो वैशागुम् हेडयीमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नदहार्यः उदैनम् विश्वा भूतानि स दृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीरुषे अधो ये अस्य तत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्दनस्त्वमुभयोरात्रियोर्जाम् यास्य देहस्त इषवपराता भगवो वपा अवतत्य धनुः स्वगुम् सहस्राक्षशतेषु धे निषेव्यशल्याणाम् का शिवो न सुमना भव विज्यम् धनु कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुजस्य निशम् गतिः यातेः धर्मे दुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायाना तथाय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अधो यजिषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् జయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమః. సస్తింజరాయ త్రిషీమతే పదీనాం పతయే నమో నమో. బబ్లుషాయ వివ్యాధినేనానాం పతయే నమో నమో. హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో. భవస్య హేత్రే జగతాం పతయే నమో నమో. రుద్రాయ తతావినే క్షేత్రాణాం పతయే నమో నమ. సూతాయ హంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువంతయే వారివస్కృతాయ ఔషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ. కృష్ణవేతాయ ధావతే సత్వనాం పతయే నమః. నమస్సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ. కకుభాయ నిషంగిణే సేనానాం పతయే నమో నమో. నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే నమో నమో. వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో. నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమస్కారిభ్యో. జిగాగుంసభ్యోముష్ణతాం పతయే నమో నమో. శ్రీమద్భ్యో నక్తం జలభ్యః ప్రగ్రంథానాం పతయే నమో నమ. ఉష్ణీషినే గిరిచరాయ కులుంచానాం పతయే నమో నమ. ఇషమద్భ్యో ధన్వారిభ్యశ్చ వో నమో నమ. ఆతన్మానేభ్యః ప్రతిదధానేభ్యశ్చ వో నమో నమ. ఆయచ్చభ్యో విసృజభ్యశ్చ వో నమో నమోస్యభ్యో విద్యభ్యశ్చ వో నమో నమ. ఆసీనేభ్యశయానేభ్యశ్చ వో నమో నమ. స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ. స్తిష్టభ్యో ధావద్భ్యశ్చ వో నమో నమ. సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో. అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ. ఉగణాభ్యస్త్రిగంహదేభ్యశ్చ వో నమో నమో. గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో. భ్రాతేభ్యో భ్రాతపతిభ్యశ్చ వో నమో నమో. గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో. విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో. మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో. రథిభ్యో రథేభ్యశ్చ వో నమో నమో. రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ. సేనాభ్యః సేనానిభ్యశ్చ వో నమో నమః. క్షత్రభ్యః సంగ్రహేతృభ్యశ్చ వో నమో నమః. సక్షభ్యో రథకారేభ్యశ్చ వో నమో నమః. కులాలేభ్య కర్మారేభ్యశ్చ వో నమో నమః. పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమశుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వరిభ్యశ్చ వో నమో నమశ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః చర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో మేరుష్టమాయ శేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వక్షీయతే చ నమో వృద్ధాయ చ సంవృద్ధనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శీభ్యాయ చ నమః ఓర్మ్యాయ చ వస్వన్యాయ చ నమః శ్రోదస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేనాయ చాశురథాయ చ నమః శూరాయ చ వవిందతే చ నమో వర్మిణే చ వరుధినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్ణవే చ ప్రభృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేషుధిమతే చ నమః శేష్ణే చ వేచాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః శోద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశంకాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వశ్యాయ చ వశ్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈంద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాత్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః సామ్రాయ చారుణాయ చ నమః శంఘాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః తీర్థ్యాయ చ గోళ్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆకాద్యాయ చాలాద్యాయ చ నమః షష్ట్యాయ చ భేన్యాయ చ నమః శిఖత్యాయ చ ప్రవాక్యాయ చ नमः हिरण्याय च प्रपत्याय च नमः किगुंशिलाय जक्षगणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेक्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ओर्व्याय च सोर्व्याय च नमः पर्याय च पर्णशद्याय च नमो बगुरमाणाय च भिग्रते च नमः आखिदते च रक्षिदते च नमो वत्किरिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः निर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धतस्पदे दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मारोमो येषाम् किञ्चनाममत् याते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपद्दिने क्षयद्वीराय प्रभरामहेमतिम् यथा नः शमशद्विपदे चतुष्पदे विश्वम् पुष्टङ्ग्रामे अस्मिन्ननादुरम् मृणानो रुद्रोदनो मयस्कृते क्षयद्वीराय नमसा विधेमते यच्छन् च योश्च मनुराय जे पिता तदस्याम तव रुद्र प्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो मधे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो मधेर्हविष्मन्तो नमसा विधेमते आराते गोग्रहुत पूरुषग्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु रक्षाजनो अधिज देव ब्रूयदा च नः शर्म यच्च विवरुहाः सुहिश्रुतम् गर्त सदम् युवारम् मृगन्न भीममुपहत्नमुग्रम् मृणा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतृवृणत्तु परित्वेजस्य दुर्मतिरघायोः अवस्थिरामगमध्यस्तनुष्वमीर्वत्सोकाय तनयाय मृडया मीदुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वदा न आचर पिनाकम् बिभ्रदागहे विगिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुह्येतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वदन्वानि तन्मसे अस्मिन्महत्यर्णवेन्दरिक्षे भवा अधे नीलग्रेवाशितिकण्ठा चर्वा अधः क्षमाचराः
నీలగ్రీవాదిగంధాదివగం రుద్రా ఉపశ్రితాః ఏ వృక్షేషు తస్పింజరా నీలగ్రీవా విలోహితాః ఏ భూతానామధిపతయో విశిఖాతక్కపర్దినః ఏ అన్యేషు విభిద్యంతి పాత్రేషు పిబతో జనాన్ ఏ పథాం పతిరక్షయ ఐలభృతాయ వ్యుదః ఏ తీర్థాని ప్రజలంతి శ్రీకావంతో నిషంగిణః యగేతావంతస్య భూయాగుం తస్య దిశో రుద్రావితస్తిరే తేషాగుం సహస్రయోజనే వదన్నామి తన్మసే నమో రుద్రేభ్యోగే పృథివ్యాం ఏంతరిక్షే ఏతి వికేశావన్నం వాతో వరుషమిషమస్తేభ్యో దశ ప్రాజేర్దశ దక్షిణా దశ ప్రదేచేర్దశో దేచేర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృడయంతు తేయం ద్విష్మో యస్య నోద్వేష్టితం భోజం వేదధామి త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ వందనాన్ మృత్యోర్ముక్షేయమామృతాత్ యో రుద్రా అగ్నవ్యో అప్సుయ ఓషదేశ యో రుద్రా విశ్వా భువనాదివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశా మృత్యో మర్త్యాయ హంతవే తాన్యజ్ఞస్య మాయయా సర్వానమయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రామామి శాంతకః తేనాన్యేనాప్యాయస్వ నమో రుద్రాయ విష్ణవే మృత్యర్మే పాహి తమస్తు హియస్సుషస్సు ధన్వాయో విశ్వస్య క్షయదివేషజస్య యక్ష్వా మహేసో మనసాయ రుద్రం నమో భిర్దేవమసురంధువస్య అయం మే హస్తో భగవానయం మే భగవత్తరః అయం మే విశ్వభేషజోయగు శివాభిమరుషనః ఓం శాంతి 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 ఓం అగ్నా విష్ణో సజోషసే మా వర్ధంతు వాంగిరః ద్యుమ్నైర్వాజేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసితిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే శుభశ్చ మే ప్రాణశ్చ మే అపానశ్చ మే జ్ఞానశ్చ మే తుశ్చ మే చిత్తం చ మాధీతం చ మే వాక్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మఓజశ్చ మే సహశ్చ మ ఆయుశ్చ మే జరా చ మ ఆత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మేంగాని చ మే స్థాని చ మే పరోగుంషి చ మే శరీరాణి చ మే జ్యేష్ఠం చ మాధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మే మశ్చ మేంభశ్చ మే జేమా చ మే మహిమా చ మే వరిమా చ మే ప్రతిమా చ మే వష్మా చ మే ద్రాఘుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే ద్విషిశ్చ మే క్రీడా చ మే మోదశ్చ మే जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुखं च मे सुपथं च मरुद्धं च मरुद्भिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे गन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोऽस्य मे प्रसोऽस्य मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ऊर्क्ष मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सर्दिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे रयश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभुज मे प्रभु च मे बहुज मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयमाश्च मेनं च मे शुच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्णपच्यं च मे कृष्णपच्यं च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे ओषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मेधाभ्यश्च मे धृपतिश्च म उपागु सुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे इद्वश्च मे बर्हिश्च मे वेदिश्च मे धिष्णिराश्च मे शुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतवृच्च म आधवणीयश्च म आग्नेर्घ्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोणाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाश्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाश्च मे तुर्यौहे च मे पष्टवाश्च मे पष्टौहे च म उक्षा च मे वशा च मऋषभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुं षच्च मे सा चत्वारिगुं षच्च मे वाजस्य प्रथवश्चाभिजश्च क्रतुश्च शुभश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च वनश्च भुवनश्चाधिपतिश्च इडादेवहोर्मनुर्यज्ञनेर्बृहस्पतिरुक्था मदानि शगुंसिषद्विश्वे देवासोक्तवा च पृथिविमातर्मा माहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तं मा देव अवन्तु शोभाये पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ैयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स्वभूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वशेषानः यदन्नेनातिरोहति एतावानस्य महिमा हतोज्यागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवे त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशनादशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिधः कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् वृषदाज्यम् पशुगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रुचः सामानि जग्मिरे छन्दागुंसि जग्मिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चो भयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् यददुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहु का ऊरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरसाच्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टादिददद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवाः सन्वशे हेश्च ते लक्ष्मीश्च पत्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छञ्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ नातु न इन्द्रक्षुमन्तम् चित्रम् ग्राभम् सङ्गृभाय महाहस्ते दक्षिणेन विद्माहि त्वा तु विकूर्मिम् तु विदेष्णम् तु विमघम् तु विमात्रमवोभिः न हि त्वा शूरदेवा नमत्ता सोदित्सन्तम् भीमम् नगाम् वारयन्ते एतोन्विन्द्रम् सवामेशानम् वस्वस्वराजम् न राधसामर्थिषन्नः प्रस्तोषदुपगाधि छत्रवत्सामगीयमानम् अभिराधसा जुगुरत् आनो परदक्षिणेनाभिसव्येन प्रमृशा इन्द्रमानो वसो निर्भाक् उपक्रमस्वाभरदृशता दृष्णो जनानाम् अदाशोष्टरस्य वेदः इन्द्रय उनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुतम् सनुहि सद्यो जुवस्ते वाजा अस्मभ्यम् विश्वश्चन्द्राः वशैश्च मक्षो जरन्ते गणानाम् त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पतान शृण्वन्नोतिभिः सेदसादनम् निषुषेरगणपते गणेषु त्वामाहुर्विप्रथमम् कवीनाम् नृते त्वत्क्रियते किञ्चनारे महामर्कम् मघवन् चित्रमच्च अभिख्यानो मघवन्नाधमानान् सखे बोधिवसुपते सखीनाम् रणम् कृतिरनकृत्सत्यशुष्मा भक्ति चिदा भजा राये अस्मान् ॐ शान्ति शान्ति शान्तिः ॐ देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवच्चसा यापि सिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् सरस्वत्यै वैषज्येन वेद्यायानाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् ओष्णो हस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रिये यशसा बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे श्विनोर्बाहुभ्याम् ओष्णो हस्ताभ्यागुम् सरस्वत्यै वाचयन्तुर्यन्त्रेणाग्नेस्त्व साम्राज्येनाभिषिञ्चामि इन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि बृहस्पते त्वा साम्राज्येनाभिषिञ्चामि आयुराशा
नास्ति सुप्रजास्त्वमाशास्ति सजातवनस्यामाशास्ति उत्तरान्देव यज्यामाशास्ति भूयो हविष्करणमाशास्ति दिव्यं धामाशास्ति विश्वं प्रियमाशास्ति यदनेन हविषाशास्ति तदस्यात् तदृद्यात् तदस्मै देवारासन्ताम् द्रुपदादिवेदमुमुचानः स्विन्नस्नात्वीमलादिव पूतम् पवित्रेणेवाज्यम् आपश्युन्दन्तुमैरसः भोर्भुवस्सु 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 वः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ ईशावास्यमिदगुम् सर्वम् यत्किञ्च जगत्याम् जगत् तेन त्यक्तेन भुञ्जेधामागृध कस्य सिद्धनम् कुर्वन्नेवेह कर्माणि जिजे विशेक्षतगुम् समाः एवम् त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे असुर्यानामते लोका अन्धेन तमसा वृताः तागस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः अनेजदेतम् मनसो जवेयो नैनद्देवा आप्नुवन् पूर्वमर्षत् तद्धावतो ज्ञानत्येति तिष्ठ तस्मिन् नपोमा तरिष्वा दधाति तदे जति तन्ये जति तद्दूरे तद्वन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यते सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मन्या भूद्विजानतः तत्र को मोह कशोक एकत्वमनुपश्यतः सपर्यगाच्छुक्रमकायमव्रणमस्ताविरगुम् शुद्धमपापविद्धम् कविर्मनीषे परिभो स्वयम्भूर्याथ तथ्यतोऽर्थान् यदधाच्छाश्वतेभ्य समाभ्यः अन्धम् तम प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोयौ विद्यायागुम्रताः अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया इति सुश्रुमधीराणाम् येनस्तद्विच चक्षिरे विद्याञ्चाविद्याञ्च यस्तद्वेदो भयगुंसः अविद्यया मृत्युम् तीर्त्वा विद्यया मृतमश्नुते
अन्धम् तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम् रताः अन्यदेवाहु सम्भवादन्यदाहुरसम् भवात् इति शुश्रुमधीराणाम् येनस्तद्विच चक्षिरे सम्भूतिम् च विनाशम् च यस्तद्वेदो भयगुम् सः विनाशेन मृत्युम् तीर्त्वा सम्भूत्या मृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापि हितम् मुखम् तत्त्वम् पोषन्नपावृणु सत्यधर्माय दृष्टये पोषन्ने कर्षे यमसूर्य प्राजापत्य यो हरश्मि समो हतेजो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुष सोऽहमस्मि वायुरनिलममृतमथेदम् भस्मान्तगुम् शरीरम् ॐ क्रतो स्मर कृतग् स्मर क्रतो स्मर कृतग् स्मर अग्निर्नय सुपथा राये अस्मान् विश्वानि देववयुनानि विद्वान् योऽद्यस्मज्जुहुराणमेनो भूयिष्ठाम् ते नम उक्तिम् विधेम ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ
धाता पुनस्तात्यमुदाजहार शक्रप्रविद्वान् प्रदिशस्यतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीरसम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमा नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्याग्नेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायणपरः नारायणपरम् ब्रह्मतत्त्वम् नारायणपरः नारायणपरो ध्याता ध्यानम् नारायणपरः यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिष्यतत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशप्रतीकाशगुम् हृदयम् चाप्यतोमुखम् अतो निश्यामि तस्यान्ते नाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भागे विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् भत्याकोशसन्निभम् तस्यान्ते शुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वाच विश्वतोमुखः सोऽग्रभुक्विभजन्तिश्चन्नाहारमजनः कविः तिर्यगोध्वमदश्चायैरश्मयस्तस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्तकः तस्य मध्ये वह्निशिखा अणीयोऽध्वाव्यवस्थितः नीलतो यदमज्जस्ता विद्युल्लेके भवास्वरा नीवारशोकवर्तन्वे पीताभा सद्यणोपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मः स शिवः स हरिश्रेन्द्र सोऽक्षरः परमस्वराट् ऋतगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेकम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुप्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः।